लेखनं चतुर्दः प्रभु ईशुष्य जन्मवृत्तान्तः ईश्वरस्य पुस्तकं केन पवित्रग्रन्थम् अहमेवम् इदं विधानं श्रूयन्ते इदं विधानं ईशुष्य इदं विश्वेषु आगमनं पूर्वं सः ईश्वरस्य समीपं स्वर्गेषु अस्ति इदं ईश्वरं इदं धरणी सृष्टियाना समयेन तत्विधानेषु प्रभूयुषस्य ईश्वरस्य सहायः आसीत् तत् अनन्तरसमयेण च अहमेव प्रदर्शयन्ति तत् एवं विधानं मरियं नामेषु एकः स्त्री आसीत् तस्य कल्याणम् अस्ति सा येन मनुष्येण नाशयन्ति तस्य विवाहार्थं पुनर्निर्मितः एकः मनुष्येषु सः नाम योसेपः तस्य कल्याणसमयपूर्वम् ईश्वरस्य एकः स्वर्गदूताः आगच्छन्ति त्वं मरियं समीपे एकः वार्ता वद तत् समयेन तत् स्वर्गदूता मरियं समीपे आगच्छति तत् समये मरियं भयकम्पितवान् स्वर्गदूता मरियं समीपे वदति मा भयकम्पित ईश्वराणां त्वमेव बहु सन्तोषनाय ईश्वरश्च वाञ्छा एकः पुत्रं ददाति त्वमेव नाभवति पतिः च ईश्वरस्य आत्मरूपेण त्वम् एकः पुत्रं सम्प्राप्तः त्वं सः नामं ईशेषु आसीत् सम्भवम् सः इदं विश्वस्य प्रजानां पापानां क्षमयन्ति स्म इदं विधानं स्वर्गदूतः मरियम् अस्य वद तत्समयं मरियं प्रावद इदं किं सम्भवम् अहमेव एवं समयं नाशयनन्ते अन्यमनुषः स्वर्गः दूत तस्य उत्तरं दद इदं न मनुष्यस्य पुत्रः त्वम् इदं विधानेषु सः ईश्वरस्य पुत्रः वद पुनः तत् स्वर्गदूता तत् स्थलेषु आगच्छति मरियं स्वर्गः दूतः वार्ता विश्वसयन्ति अधं सम्भवं शेषं सा अन्यतमास्थलेन प्रगच्छि तत्स्थलेन त्रीणि मासः निवसयन्ति एकः समीपबन्धुवेषु पुनः सा प्रागच्छयति इदं योसेपस्य दृष्टां तत्समयेन मरियं गर्भस्थस्त्री तत्समयेन सा पुनरालोचनस्यु सः इदं विधानेषु एकः पदकं निर्मितवान् तस्य पदकेषु मरियं विसर्जितकार्यम् अस्ति च एतत् स्वर्गदूताः पुनः योसेपस्य आगच्छति तत् स्वर्गः दूता योसेपस्य इदं प्रकारं वदति त्वं मरियं येषु कल्याणं भवन्ति न भय सा पवित्रात्मस्य रूपेषु गर्भम् आसीत् तत् समयेषु बालकः जननम् आसीत् सः नामं ईशुष्य सः इदं विश्वस्य प्रजानार्थं तेषु पापकार्येषु रक्षितवान् इदं विधानेषु योसेपस्य मरियं कल्याणम् आसीत् यूशस्य जन्मपूर्वेण मरियं च यूसेपस्य नाशयन्ति सम्मिलन्तः यूशस्य विद्याभ्यासम् आरम्भं भवति तत् अनन्तरं सः त्रीणि संवत्सराणि गच्छति। ईशस्य तस्य मातापितरः गृहं विसर्जति यम्। सा इदमेव ग्रामेषु अन्यतमा ग्रामं प्रगच्छति। ईश्वरस्य शुभवार्ता श्रूयन्तान् आरम्भम् आसीत्। सः तेषाम् अनारोग्यजनानां स्वस्थतं ददा। सः ददा इदं विधानेषु अङ्गविकलानि सम्प्राप्तं तदा। इदं विधानं ददाति अन्धेषु नेत्रदानम्। सः ददा इदं विधानेषु विकलाङ्गस्य जिह्वाशब्दं च नावार्ता मनुष्याणां सम्प्राप्तं वार्ताः। सः इदं विधानेषु करिष्यति किमार्थं सः ईश्वरस्य पुत्रः। सः इदं विधानेषु जनानां सहायार्थं सर्वं सर्वदा करिष्यति। तत् प्रजानां ईशस्य सर्वशक्तं पश्यति संविधानेषु सत्यं। त्वमेषु ईशस्येषु शेषाः प्रजानां विश्वासं कुर्वन्ति। इदं विधानेषु प्रभु ईश्वरस्य पुत्रः। ईशस्य तत् प्रजानां पापजीवनानि पश्यति च इदं विधान तस्य पापानां क्षमया धरित्री दादति। किं विधानं तस्य प्रेमार्धरूपम्। इदं विश्वस्य प्रजानार्थं तस्य प्राणाहुं दधानेक संसिद्धवान्। तत् मरणान्तरं युष्माकं पापविनाशस्य शिक्षारुसुमं ददा। तेषु वाञ्छितम् इदं विधानं किमार्थं तेषु ज्ञानन्ति स्मान्। एवम् ईशस्य तेषु रक्षण रक्षयन्ति एवं। सः आसीत् शक्तिवन्तान् तत्विधानेषु ईशस्य विश्वासं कुर्वन्ति। किमेव सः सातानस्य च दुष्टात्मानां त्वं रक्षयन्ति। सः त्वमशेषं सम्पूर्णकार्यं कर्मेषु संसिद्धता। त्वमेषु वद श्रूयन्ते संसिद्धविधानं। सा त्वमेव वादनं च प्रार्थनाः संसिद्धतवान्।